Book 2
6
Chờ
Chờ
Đọc và viết
Padhna aur likhna
Padhna aur likhna
Tôi đọc
Main padhta hoon
Main padhti hoon
Tôi đọc một chữ cái.
Main ek akshar padhta hoon.
Main ek akshar padhti hoon.
Tôi đọc một từ.
Main ek shabd padhta hoon.
Main ek shabd padhti hoon.
Tôi đọc một câu.
Main एक वाक्य पढ़ता हूँ।
मैं एक वाक्य पढ़ती हूँ।
Tôi đọc một lá thư।
मैं एक पत्र पढ़ता हूँ।
मैं एक पत्र पढ़ती हूँ।
Tôi đọc một quyển sách।
मैं एक पुस्तक पढ़ता हूँ।
मैं एक पुस्तक पढ़ती हूँ।
Tôi đọc
मैं पढ़ता हूँ।
मैं पढ़ती हूँ।
Bạn đọc
तुम पढ़ते हो।
तुम पढ़ती हो।
Anh ấy đọc
वो पढ़ता है।
वह पढ़ता है।
Tôi viết.
मैं लिखता हूँ.
मैं लिखती हूँ.
Tôi viết một chữ cái.
मैं एक अक्षर लिखता हूँ.
मैं एक अक्षर लिखती हूँ.
Tôi viết một từ.
मैं एक शब्द लिखता हूँ.
मैं एक शब्द लिखती हूँ।
Tôi viết một câu।
मैं एक वाक्य लिखता हूँ।
मैं एक वाक्य लिखती हूँ।
Tôi viết một lá thư।
मैं एक पत्र लिखता हूँ।
मैं एक पत्र लिखती हूँ।
Tôi viết một quyển sách.
मैं एक पुस्तक लिखता हूँ.
मैं एक पुस्तक लिखती हूँ.
Tôi viết.
मैं लिखता हूँ.
मैं लिखती हूँ.
Bạn viết.
तुम लिखते हो.
तुम लिखती हो.
Anh ấy viết.
वह लिखता है.
वह लिखता है.